Sairam, dear listeners, and welcome back to the studios of Radio Sai. Prashant Thiralayam, giving you a live broadcast every Thursday in the Asia stream of Radio Sai. As the proceedings in the Sai Kulwant Hall have ended just now, it's now time for us to get back to the evening session of this Thursday live. And without any further delay, we shall go into the first segment, that is the Radio Sai Vedam Tutor. And Praveena sir is ready with us to teach the Aruna Prashnam. Over to Praveena sir.
Om Sri Sai Ram. We shall commence the session with Ganesha Prarthana Mantra, chanting together.
Om Gadanantva Gadapati Gum Havamahe Kavim Kavinam Upamashravastamam Jeshtarajam Brahmanam Brahmanaspata Anashrunvan Notivissedasadhanam Prano Devi Saraswati Vajevir Vajinivati Dhinama Vitriyavatu Ganeshaya Namaha Saraswatyai Namaha Shri Gurubhyo Namaha Harihi Om Bhadram Karne Vishrunuyama Devah Bhadram Pashye Maksha Viryajatra Sirairangai Estushtuvagum Sastarubi Vyashema Devahi Tanyadayuhu Swastina Indro Vriddhashravah Swastina Pusha Vishwavelah Swasti Nastaksho Arishtarimihi Swasti No Brihaspatir Dhatu Om Shanti Shanti Shanti
Sai Ram, before we continue with the next paragraph, that is 91st paragraph, we shall quickly revise the previous two paragraphs. That is, starting from Iman Lokan Pratyakshena, that is the 89th paragraph, and then going on to Apova Idamatan Salilameva, the 90th paragraph. So we shall chant both these paragraphs once, the Samhita part, and then we shall go for learning the next one. We shall chant together.
Iman lokan pratyakshena kamagnyin chinute imamaruna ketu kamagnyin chinvana ite ya evasau itascha mutascha vyate pate tamite yo agner mitho ya veda mithunavan bhavate Apova Agner Mithuya Mithunavan Bhavati Ya Evam Veda Apova Idamatan Salilameva Saprajapatireka Pushkara Parne Samabhavat Tasyam Tarmanasika Masamavartata Idagum Shruti Yamiti Tasmajya Purusho Manasa Bhigacchati Tadvacha Vadati Tat Karmana Karoti Tadesha Bhyanukta Kamastadagre Samavattatati Manasoretha Prathamayadasit.
Please repeat after me twice. Sato bandhu masati niravindan
Sato bandhu masati niravindan Sato bandhu masati niravindan
Hrade pratishya kavayo manisheti
Hrade pratishya kavayo manisheti Hrade pratishya kavayo manisheti
Upainam Tadupanamati
Upainam tadupanamati Upainam tadupanamati
Yat
kamo kamo bhavati
yat kamo bhavati yat kamo bhavati
yat kamo bhavati
yat kamo bhavati yat kamo bhavati
ya evam veda
ya evam veda ya evam veda
satapo tapyata
satapo tapyata satapo tapyata
satapastattva
satapastattva satapastattva
shariramadhunuta
shariramadhunuta shariramadhunuta
tasya yanmagum samasit
tasya yanmagum samasit tasya yanmagum samasit
tato runah
tato runah tato runah
ketavo vatarashana
ketavo vatarashana ketavo vatarashana
rishaya udatishthan
rishaya udatishthan rushaya udatishthan
tato runah ketavo vatarashana rishaya udatishthan
tato runah ketavo vatarashana rushaya udatishthan tato runah ketavo vatarashana rushaya udatishthan
yenakha
yenakha yenakha
devaikhanasaha
devaikhanasaha devaikhanasaha
yevalaha
yevalaha yevalaha
devalakhilyaha
devalakhilyaha devalakhilyaha
yorasaha
yorasaha yorasaha
sopam
sopam sopam
antaratah
antaratah antaratah
kurmam bhutagum
kurmam bhutagum kurmam bhutagum
sarpantam
sarpantam sarpantam
antaratah kurmam bhutagum sarpantam
antaratah kurmam bhutagum sarpantam antaratah kurmam bhutagum sarpantam
tamabravit
tamabravit tamabravit
tamabravit
tamabravit tamabravit
mama vai
mama vai
tvam magum sa
tvam magum sa tvam magum sa
mama vai tvam magum sa
mama vai tvam magum sa mama vai tvam magum sa
samabhut
samabhut samabhut
now these two paragraphs we'll chant them together the samhita part of it
Sato bandhumasati niravindan hriti pratishya kavayo manishete upayanam tadupanamate yatkamo bhavate ya evam veda satapo tapyata satapastattva shariramadhunuta tasya yanmagum samasete ततो रुणाः केतवो वातरशना ऋषय उदतिष्ठन् येन खाः ते वै खानसाः ये बालाः ते बालखिल्याः यो रसः सोपाम् अन्तरतः कूर्मम् भूतगुम् सर्पन्तम् तमब्रवीत् मम वै त्वम् मागुंसा समभूत्
नेत्यब्रवीत्
नेत्यब्रवीत् नेत्यब्रवीत्
पूर्वमेव
पूर्वमेव purvameva
hamiha samiti
hamiha samiti hamiha samiti
purvameva hamiha samiti
purvameva hamiha samiti purvameva hamiha samiti tat purushasya purushatvam
tat purushasya purushatvam
sahasrashir sha purushah sahasrakshas sahasrapat
bhutvodatishthat
tamabravit
tvam vai purvagum
samabhoh
tvam vai purvagum samabhoh
tvamidam purvah
kurushveti
tvamidam purvah kurushveti
saita adayapah
अञ्जलिना पुरस्तादुपादधात्
एवाह्येवेति तत आदित्य उदतिष्ठत्
साप्राचेदिक
अथारुणः
केतुर्दक्षिणता
उपादधात् अथारुणः केतुर्दक्षिणत उपादधात्
अकारुणः केतुर्दक्षिणत उपादधात्
एवाह्यग्न इति ततो वा
अग्निरुदतिष्ठत्
ततो वा अग्निरुदतिष्ठत्
सादक्षिणादिक
अथारुणः
केतुः पश्चादुपादधात्
अथारुणः केतुः पश्चादुपादधात्
एवाहि वायो इति
Now these two paragraphs, now we'll chant together the Samhita part of it.
नेत्यब्रवीत् पूर्वमेवाहमिह समिति तत्पुरुषस्य पुरुषत्वम् सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् भूत्वोदतिष्ठत् तमब्रवीत्
tvam vai purva gum samabho tvamidam purva kurushvete sa ita adayapa anjalina purasta dupadadhat eva khevete tata aditya udatishthat sa prachidik atharuna ketur dakshinata upadadhat eva hyagra iti tatova agnirudatishthat sa dakshinadik atharuna ketu paschadupadadhat eva hi vayo iti
Tato vayurudatishthat
Tato vayurudatishthat Tato vayurudatishthat
Sa prati chedik
Sa prati chedik Sa prati chedik
Atharunaha
Atharunaha Atharunaha
Keturuttarata upadadhat
Keturuttarata upadadhat Keturuttarata upadadhat
Atharunah keturuttarata upadadhat
Atharunah keturuttarata upadadhat Atharunah keturuttarata upadadhat
Evahindreti
Evahindreti Evahindreti
Tatova
Tatova Tato va
Indra udatishthat
Indra udatishthat Indra udatishthat
Sodi chedik
Sodi chedik Sodi chedik
Atharunah
Atharunah Atharunah
Ketur madhya upadadhat
Ketur madhya upadadhat Keturmadhya upadadhat
Atharunah keturmadhya uda upadadhat
Atharunah keturmadhya upadadhat Atharunah keturmadhya upadadhat
Atharunah keturmadhya upadadhat
Atharunah keturmadhya upadadhat Atharunah Keturmadhya upadadhat
Evahi poshanniti
Evahi poshanniti Evahi poshanniti
Tato vai poshodatishthat
Tato vai poshodatishthat Tato vai poshodatishthat
Seyandik
Seyandik Seyandik
Atharunah
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 Atharunah Atharunah
Keturuparishtadupadadhat
Keturuparishtadupadadhat Keturuparishtadupadadhat
Atharunah Keturuparishtadupadadhat
Atharunah Keturuparishtadupadadhat Atharunah Keturuparishtadupadadhat
Evahi Deva iti
Evahi Deva iti Evahi Deva iti
Evahi Deva iti
Evahi Deva iti Evahi Deva iti
Tato
Tato Tato
Deva Manushyah
Deva Manushyah
Deva Manushyah
Deva Manushyah
Pitarah
Pitarah Pitarah
Tato Deva Manushyah Pitarah
Tato Deva Manushyah Pitarah Tato Deva Manushya Pitaraha
Gandharvapsa
Gandharvapsa Gandharvapsa
Rasaschodatishthan
Rasaschodatishthan Rasaschodatishthan
Gandharvapsa Rasaschodatishthan
Gandharvapsa Rasaschodatishthan Gandharvapsarasaschodatishthan
Sordhvadik
Sordhvadik
सोऽध्वादिक्
या विप्रुषो
विपरापतन् ताभ्योऽसुरा
रक्षागुंसि
ताभ्योऽसुरा रक्षागुंसि पिशाचाश्चोदतिष्ठन्
तस्मात्ते पराभवन् विप्रुद्भ्योहि
ते समभवन्
तदेशाभ्यनूक्ता. Now we shall chant these two paragraphs together, that is starting from 95th and then going on to 96th paragraph. We'll chant together the Samhita part of it.
ततो वायुरुदतिष्ठन् सा प्रतिचेदिक अतारुण केतुरुत्तरत उपादधात् एवाहीन्द्रेति ततो वा इन्द्र उदतिष्ठत् सोदिचेदिक अतारुण केतुर्मध्य उपादधात् एवाहि पोषन्निति ततो वै पूषोदतिष्ठत् सेयन्दिक अतारुण केतुरुपरिष्ठादुपादधात् एवाहि देवा इति ततो देवमनुष्या पितरः गन्धर्वाप्सरसश्चोदतिष्ठन् सोऽर्ध्वादिक या विपृशो विपरापतन् ताभ्योऽसुरा रक्षागुंसि पिशाचाश्चोदतिष्ठन् तस्मात्ते पराभवन् विप्रद्भ्योहि ते समभवन् तदेशाभ्यमोक्ता.
Now we shall chant whatever we have learned today, that is starting from the 91st paragraph till here. We'll chant together the Samhita part.
सतो बन्धुमसतिरविन्दन् हृदि प्रदेश्या कवयो मनीषेति उपैनन्तदुपनमति यत्कामो भवति य एवं वेदा सतपोतप्यता सतपस्तप्त्वा शरीरमधूनुता तस्य यन्मागुं समासेत् ततो ऋणा केतवो वातरशनारुषय उदतिष्ठन् येन खाः ते वै खानसाः ये बालाः ते बालखिल्याः यो रसः सोपाम् अन्तरथ कूर्मम् भूतम् सदर्पन्तम् तमब्रवीत् मम वै त्वम् मागुंसा समभूत् नेत्यब्रवीत् पूर्वमेवाहमिहासमिति तत्पुरुषस्य पुरुषत्वम् स सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् भूतोदतिष्ठत् तमब्रवीत् त्वम् वै पूर्वगुम् समभूः त्वमिदम् पूर्वः कुरुष्वेति
saita adayapa anjalina purastadupadadat eva khyevete tata aditya udatishthat sa prachidik atarunak ketur dakshinata upadadat eva khyagna iti tato va agnirudatishthat sa dakshinadik atarunak ketu paschadupadadat eva hivayo iti tato vayurudatishthat sa pratichidik atarunak keturuttarata upadadat eva hindreti tato va indra udatishthat sodichidik atarunak keturmadhya upadadat eva hi pushanniti tato vai pushodatishthat seyam dik atarunak keturuparishtadupadadat eva hi deva iti tato deva manushya pitara gandharvapsarascodatishthan सोर्ध्वादिक या विप्रुषो विपरापतन ताभ्यो सुरारक्षागुंसि पिशाचाश्चोदतिष्ठन् तस्मात्ते पराभवन् विप्रद्भोहिते समभवन् तदेशाभ्यनोक्ता भद्रं कर्णे विश्रुणुयामदेवाः भद्रं पश्येमाक्षवीर्यजत्राः स्थिरैरङ्गैस्तुष्टुवागुं सस्तनोभिः व्यशेमदेवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु शान्ति शान्ति शान्तिः यदक्षरपरब्रष्टम् मात्रा हीनम् द्वयद्भवेत् तत्सर्वम् क्षम्यताम् देवा नारायणे नमोऽस्तु ते विसर्गबिन्दुमात्राणि पदपादाक्षराणि च न्यूनानि चातिरिक्तानि क्षमस्व सा ईश्वरा अपराधसहस्राणि क्रियन्ते हर्निशर्मया दासोऽयमिति माम् मत्वा क्षमस्व सा ईश्वरा अन्यथा शरणम् नास्ति त्वमेव शरणम् मम तस्मात् कारुण्यभावेन रक्ष रक्ष सा ईश्वरा हरिः ओम् तत्सत् श्री साईश्वरार्पणमस्तु.
With this, we come to an end to this week's Radio Sai Vedam Tutor. In the coming class, we should continue with the Aruna Prashnam. Now it's time for us to move ahead with the next segment of this Thursday Live's evening session, Radio Sai Bhajan Classroom, hosted by Brother Bishu. Sai Ram and happy listening. Over to Brother Bishu.
Sai Ram to all of you. Welcome back to